एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। अविरलवृष्टेः कारणेन दूरापन्नस्य भूस्खलनस्य पूरणेन कालीकोट दाङ जनपदयोः एकादश जनाः मृताः सन्ति। कालीकोट जनपदस्य नरहरिनाथ ग्रामपालिकायाः चतुर्थवडा क्षेत्रे मंगलवासरस्य रात्रौ भूस्खलनेन गृहद्वयं पूरितं सद् एकस्यैव परिवारस्य सप्तभिः सह नवजनाः अम्रियन्त। कालीकोट जनपदस्यैव राजकोट नगरपालिकायाः प्रथमवडा क्षेत्रवर्तिन्यां तुषार खोला नद्यां दूरापन्नेन जलविप्लवेन गृहं प्रवाहितं सद् विलुप्तो जनः मृतोऽस्ति। दाङ जनपदे भूस्खलनेन पूरणात् जनद्वयं मृतमस्ति। बाजुरा जनपदस्य बुढीगंगा नगरपालिकायाः प्रथमवडा क्षेत्रस्थिते अमकोट स्थाने भूस्खलनेन एको जन विलुप्तोऽस्तीति प्रहरी ज्ञापयति। कैलाली जनपदे ह्यो जलविप्लवेन प्रवाह्य त्रयो जनाः विलुप्ताः सन्तीति प्रमुख जनपदाधिकारी यज्ञराज बोहरा अवदत्। विलुप्तानां जनानाम् अन्वेषणं विधीयमानमस्तीति असौ अवोचत। कैलाली जनपदस्यैव भजनी नगरपालिकायाः पञ्चम सप्तमवडा क्षेत्रयोः कान्द्रा नद्याः जलविप्लवस्य प्रवेशनेन शतत्रयं पञ्चाशच्च गृहपरिवाराः विस्थापिताः सन्ति। अविरलवृष्टेः कारणेन अछाम जनपदे शतशो रोपनी परिमितायां कृषिभूमौ भौतिक संरचनासु च व्यापक क्षतिर्भूता वर्तते। जलविप्लवेन कतिचित् गृहाणि भग्नानि, संकटे च प्राप्तानि। लघुजलविद्युत् आयोजनायाः जलसरणी विद्युत्पादनगृहे पूर्णरूपेण क्षतिग्रस्ते सम्भूते शतशो रोपनी परिमिता कृषिभूमि प्रवाहिता चेति अछामस्थ प्रमुख जनपदाधिकारी पुण्यविक्रम पौडेलः अज्ञापयत्। अछाम जनपदस्यैव रामा रोशन ग्रामपालिकायाः आसन्नैक शतं गृहाणि भूस्खलनस्य संकटे सन्तीति ग्रामपालिकायाः उपाध्यक्षा सरस्वती रावलः समसूचयत्। सिन्धुपाल्च जनपदस्य भोटेकोशी ग्रामपालिकायाः चतुर्थवडा क्षेत्रवर्तिनी फुलपिङ्कट्टी स्थाने दूरापन्नेन भूस्खलनेन पूरणात् मृतानां जनानां संख्या पञ्च प्राप्ता वर्तते। अस्यैव श्रावणस्य प्रथमदिवसस्य रात्रौ गृहस्य पूरणेन विलुप्तस्य जनद्वयस्य ह्य चतुर्दश दिनानां पश्चात् शवयोः प्राप्तेः अनन्तरं मृतकानां संख्या पञ्च प्राप्तेति जनपद प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षका माधव प्रसाद काफले अकथयत्। झापा जनपदस्य कनकाई नगरपालिकायाः चतुर्थवडा क्षेत्रे कनकाई नद्या प्रवाह्य एको जन विलुप्तोऽस्ति। झापा जनपदस्यैव बिरता मोड नगरपालिकायाः सप्तमवडा क्षेत्रस्थिते खालबारी स्थाने एक। मोरङ जनपदस्य विराटनगर महानगरपालिकायाः एकादशवडा क्षेत्रे एकश्च जनौ विद्युत् प्रवाह स्पर्शेन मृतौ इति प्रहरी ज्ञापयति। कतिभिः दिवसैः दूरापन्नायाः अविरलवृष्टेः कारणेन झापा जनपदस्य गौरीगंज ग्रामपालिकायाः प्रथमवडा क्षेत्रस्थिते रंगिया थानस्थाने कनकाई नद्या जलबन्धनस्य भञ्जनेन होकलबाडी स्थानस्य उनत्रिंशत् गृहाणि जलमग्नानि सन्ति। जलविप्लवेन कृषकाणां शतशो विघा परिमिता धान्य कृषि नष्टा एकादश गृहपरिवारः पूर्णतो विस्थापिताश्च वर्तन्ते। अत्रान्तरे कञ्चनपुर जनपद प्रशासन कार्यालयेन नदीषु जलप्रवाह सततं वर्धितोऽस्तीति हेतोः सावधानाः भवितुं नद्यः पार्श्ववर्तिनो नागरिकाः अनुरुद्धाः सन्ति। पर्वतीय जनपदेषु निरन्तरं वृष्टेः कारणेन नदीषु जलप्रवाहस्य प्रवर्धनक्रमः अविच्छिन्नस्थिति हेतोः सावधानाः भवितुं सार्वजनिकरूपेण अनुरुद्धमिति कञ्चनपुरस्य प्रमुख जनपदाधिकारी गोकर्णप्रसाद उपाध्यायः अबोधयत्। गत सोमवासरतः सक्रिया जलवृष्टि प्रणाली स्वशुक्रवासरं यावत् तथैव भवितेति जलवृष्टि पूर्वानुमान महाशाखया ज्ञापितं वर्तते। गतदिने अतिरिक्तेषु शतद्वय दशसु च जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापक डा जागेश्वर गौतमः गतदिने शतद्वय दशसु च जनेषु कोरोना संक्रमणस्य पुष्टि भवनेन सहैव नेपाले विभिन्नेषु एकान्तवास केन्द्रेषु सम्प्रति पञ्चसहस्रं शतत्रयं षष्टिश्च सक्रिय कोरोना संक्रान्ता जना सन्तीति अज्ञापयत्। एवमेव गतदिने शतम् षट् चत्वारिंशत् जना कोरोनामुक्ताः सन्ति। वीरगंज स्थानस्य नारायणी चिकित्सालय, नेपाली सेना, नेपाल प्रहरी कारावासीभिः सहितेषु चतुस्त्रिंशति जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते। शतद्वयस्य चतुस्सप्ततिश्च जनानां निदर्शनं संकलय्य परीक्षणे विहिते चतुस्त्रिंशति जनेषु संक्रमणं पुष्टीभूतम् इति नारायणी चिकित्सालयस्य चिकित्सालय सुपरिवेक्षकः डाक्टर मदन उपाध्याय अज्ञापयत्। अर्थमन्त्री डाक्टर युवराज खतिवडा राष्ट्रिय गौरवस्य आयोजनानां कृते स्रोतसां न्यूनता निवार्यते इति प्रतिबद्धतां व्यनक्ति। संसदः राष्ट्रिय सम्बद्धता समितेः ह्यसिंह प्रासादे उपविष्टे उपवेशे अर्थमन्त्री डाक्टर खतिवडा अगदत् राष्ट्रस्य समृद्ध्या सह संयोजितानां राष्ट्रिय गौरवस्य आयोजनानां अतिरिक्त महत्वेन सह अग्रे वर्धापनाय आवश्यकानि सर्वविधानि स्रोतांसि व्यवस्थापयितुं सर्वकारः प्रतिबद्धो वर्तते। अर्थमन्त्री डाक्टर खतिवडा आयोजनानां क्रियान्वयनेन गृह परिवार विहीनेभ्यो भूमिहीनेभ्यश्च जनेभ्यः सर्वकारेण पुनर्वासस्य व्यवस्था विधीयते इत्यज्ञापयत्। प्रतिनिधि सभायाः कृषि सहकारी प्राकृतिक स्रोत समित्या चितवन जनपदस्य माडस्थितायां चेपाङ वसतौ घटितायाः घटनायाः दोषिणः कठोरेण दण्डयितुं पीडितेभ्य क्षतिपूर्तिं दापयितुं च सर्वकारः निर्दिष्टो वर्तते। समितेः ह्यस्तनोपवेशेन चितवन राष्ट्रिय निकुञ्जस्य मध्यवर्ति क्षेत्रे विद्यमाने कुसुम खोला स्थाने निवसतां चेपाङ जातेः जनानां विस्थापनत्वेन विहितम् अग्निदाहं भर्सयन्त्या दोषिणः दण्डयितुं पीडितेभ्यः क्षतिपूर्तिं दापयितुं च सर्वकारः निर्दिष्टोऽस्ति इति समाचारः।